ॐ अस्य श्रीमद्भगवद्गीता माला मंत्रस्य भगवान् वेदव्यास ऋषिः अनुष्टुप् छन्दः श्री कृष्णः परमात्मा देवता अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशु च इति कीलकम् नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः अच्छेद्योयमदायो मक्लेद्यो शोष्य एव च इति मध्यमाभ्यां नमः नित्यः सर्वगतः स्थाणु रचलोयं सनातन इत्यनामिकाभ्यां नमः पश्य मे पार्थरूपाणि शतशोथ सहस्रश इति कनिष्ठिकाभ्यां नमः नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति कर्तलकरपृष्ठाभ्यां नमः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा अच्छेद्योयमदायो मक्लेद्यो शोष्य एव च इति शिखायै वषट् नित्यः सर्वगतः स्थाणु रचलोयं सनातन इति कवचाय हुं पश्य मे पार्थरूपाणि शतशोथ सहस्रश इति नेत्रत्रयाय वौषट् नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय फट् श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराण मुनिनां मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवती अष्टादशाध्यायिनी मां त्वामनुसन्दधामि भगवद् गीते भवद्वेषिणी। विशाल बुद्धे फुल्लारविन्दायत पात्र नेत्र येन त्वया भारत तैलपूर्ण प्रज्वालितो ज्ञानमयः प्रदीप पारिजाताय पुत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनम् देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। जयद्रथ जला गांधार नीलोत्पला शल्य ग्राहवती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थाम विकर्ण करा दुर्योधनावर्तिनी सोतीर्णा खलु पाण्डवैरण नदी कैवर्तकः केशवः पाराशर्यवचः सरोजममलम् गीतार्थगन्धोत्कटम् नानाख्यानकेसरम् हरिकथा सम्बोधनाबोधितम् लोके सज्जन षट्पदैरहरह पेपीयमानं मुदा भूयाद् भारत पंकजं कलिमल प्रध्वंसि न श्रेयसे। मूकं करोति वाचालं पंगुं लंघयते गिरिं। यत्कृपातमहं वंदे परमानंद माधवम्। यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैस्तवैर्वेदैः सांगपदक्रमोपनिषदैः गायन्ति यं सामगाः। ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। परमात्मने नमः। अथ श्रीमद्भगवद्गीता प्रथमोऽध्यायः। धृतराष्ट्र उवाच। धर्मक्षेत्रे कुरुक्षेत्रे कूर्वत संजय। संजय उवाच। दृष्ट्वा तु पांडवानीकं यूढं दूर्यो धनस्तदा आचार्यमुपसंगम्य वचनम ब्रवीत्। पश्यैतां पाण्डुपुत्राणां माचार्य महतीं च जूढां द्रुपदपुत्रेण तव शीर्षेण के तुष्टे कितान काशीराजश्च वीर्यवान। पुरोजित कुंती भोजश्च शैव्यश्च नरपुंगव। विक्रांत उत्तमौजाश्च वीर्यवान्। पन्तु विशिष्टाय तानि बोध द्विजोत्तम नायकामम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिं जय अश्वत्थामा विकर्णश्च सौमदत्ति तथैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे योद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्मा भीरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमा भीरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षम् गुरुवृद्धः पितामह सिंहनादं विनद्योचै शङ्खं दध्मौ सहसैवाभ्यहर्यन्त सशब्दस्तु मूलो भव ततः श्वेतैर्हयैर्युक्ते महती स्यन्दने स्थितौ माधवः शङ्खौ प्रदद्मतु पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः पौण्ड्रं दद्मौ महाशङ्खं भीमकर्मा वृकोदर अनन्त विजयं राजा कुन्ती पुत्रो युधिष्ठिरः नकुलः सह देवश्च सुघोषमणिपुष्पकौ काश्यश्च परमे श्वासः शिखण्डी च महारथः दृष्टद्युम्नो विराटश्च सात्यकृष्टा पराजितः द्वे पथुष शरीरे मे रोम हर्षश्च जायते गांडीवं स्रंसते हस्ता त्वक्चैव परिदायते शक्नोम्यवस्थातुं भ्रमति वच मे मन निमित्तानि च पश्यामि विपरीतानि केशव कृता
सोपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे अर्जुन विषाद योगो नाम प्रथमः।